एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। रसुवा जनपदे भूस्खलनेन क्षतिग्रस्तानाम् भौतिक संरचनानाम् पुनर्निर्माणाय चीनदेशेन सहयोगस्य प्रतिबद्धता व्यक्तास्ति। उपप्रधानार्थमन्त्रिणः विष्णुप्रसाद पौडेलस्य चीनदेशस्य अन्तर्राष्ट्रिय विकास सहायता नियोगस्य अध्यक्षस्य चेन सिया उदोङ इत्यस्य च नेतृत्वे विद्यमानस्य प्रतिनिधिमण्डलस्य च मध्ये ह्यो मन्त्रालये सम्भूतायाम् मेलवार्तायाम् नियोगस्य अध्यक्षः सिया उदोङ भौतिक संरचनानाम् पुनर्निर्माणाय सहयोगो विधास्यते, सीमा प्रवेश बिन्दुम् शीघ्रमेव सञ्चालयितुम् कार्यम् विधास्यते चेति प्रतिबद्धताम् अभिव्यनक। तदवसरे अर्थमन्त्री विष्णुप्रसाद पौडेलः विपदः पश्चात् पुनर्निर्माणम् नेपालस्य प्राथमिकतायाम् अस्तीति चर्चयन् भौतिक संरचनानाम् पुनर्निर्माणम् प्रति प्रदर्शितायाः तत्पर ताया अभिरुचेः प्रतिबद्धतायाश्च कृते चीनदेशीय पक्षाय धन्यवादान् व्याहरत्। अर्थमन्त्रिणः पौडेलस्य चीनदेशस्य अन्तर्राष्ट्रिय विकास सहायता नियोगस्य अध्यक्षस्य चेन नेतृत्वस्य प्रतिनिधिमण्डलस्य च मध्ये द्विपक्षीयाया मेलवार्ताया अनन्तरं चतस्रीणां परियोजनानां संविदापत्रे हस्ताक्षराणि सम्भूतानि सन्ति। नेकपा एमाले दलस्य नवम केन्द्रीय समितेः उपवेशः सञ्चलन अस्ति। ललितपुरस्य च्यासलवर्तिनी एमाले दलीय मुख्यालये प्रधानमन्त्रिणः दलाध्यक्षस्य च केन्द्रीय केपी शर्मा ओलिनः अध्यक्षतायाम् उपविष्टे प्रथमदिनस्य उपवेशे एकोनपञ्चाशत् केन्द्रीय सदस्याः उपवेशे प्रस्तुतं प्रतिवेदनम् आधृत्य धारणां व्यक्तवन्त इति एमाले दलस्य प्रचार विभाग प्रमुख राजेन्द्र गौतमः असूचयत्। उपवेशे द्वितीये महाविधान महाधिवेशने प्रस्तोष्यमाणम् उपाध्यक्षस्य विष्णुप्रसाद पौडेलस्य विधान संशोधन प्रतिवेदनम्, महासचिवस्य शंकर पोखरेलस्य संघटनात्मकं प्रस्ताव प्रतिवेदनम् चाधृत्य केन्द्रीय सदस्यैः स्वीय धारणा व्यक्ता वर्तते। प्रचार विभाग प्रमुखस्य गौतमस्य अनुसारेण ह्य गण्डकी मधेस उपत्यका विशेष प्रदेशानाम् सम्पर्क समन्वय समितिनाम् च एकोनपञ्चाशत् केन्द्रीय सदस्याः प्रतिवेदनम् आधृत्य विचारम् व्यक्तवन्तः। उपवेशे भाषमाणाः प्रायः सदस्याः दलसचिवालयेन पोलिट ब्यूरो निकायेन च सर्वसम्मत्या पारितीकृतस्य विधान संशोधन प्रस्तावस्य समर्थने स्वस्य विचारम् प्रकटितवन्तः आसन। उपवेशे पूर्व राष्ट्रपतिना विद्यादेवी भण्डारिणा दलस्यताया विहितस्य नवीकरणस्य विषयेणापि प्रवेश प्राप्त आसीत्। तत्पूर्वं दलाध्यक्ष प्रधानमन्त्री च केपी शर्मा ओली दलस्य आन्तरिकतां सुदृढीकृत्य प्रस्तुताः भवितुं केन्द्रीय सदस्यान् आहूतवान् आसीत्। अध्यक्ष ओली दलाभ्यन्तरे वैचारिक नीतिगतश्च कथंविदोऽपि विवादो नास्तीत्यतः सम्पूर्ण दलपंक्त्या एकताबद्धतया अग्रेवर्धनाय बलं दत्तवान् आसीत्। कर्णाली तटीय मार्गस्य अन्तर्गतात् खुलालु स्थानात् बाजुरा हुम्ला खण्डे विद्यमाना नवसंख्यका वज्रसेतवः अधुनावधि निर्मातुम् शक्ताः न सन्ति। उनाशीत्युत्तर द्विसहस्रतम वैक्रमाब्दस्य आषाढ मासे सेतोः निर्माणस्य संविदा विहिता सत्यपि कार्यम् सम्प्रत्यपि न प्रारब्धमस्तीति हुम्ला मार्ग विभाग कार्यालयस्य प्रमुख बेलबहादुर नेपाली अज्ञापयत्। निर्माण व्यवसायीभिः सेतूनाम् स्वरूपम् पूर्वम् निर्माय कार्यस्य प्रारम्भणस्य प्रावधाने विद्यमानेऽपि नवानाम् सेतूनाम् मध्ये सप्तानाम् सेतूनाम् स्वरूपम् अधुनावधि स्वीकृतम् नास्तीति असौ असूचयत्। कर्णाली तटीय मार्गान्तर्गतम् कालीकोट जनपदस्य फुगाड खोला नद्याः लौहसेतोः जलप्लवेन प्रवाहणात् वर्षायामे मार्गः पीतो भवति। स्वास्थ्य जनसंख्या मन्त्रालयेन वर्तमान सर्वकार संघटनस्य एकवर्षावधौ विहिताः प्रमुखाः उपलब्धिः सार्वजनिकृत्य आगामिनः कार्यदिशायाः विषये विज्ञापितम् अस्ति। ह्य काष्ठमण्डपे आयोजिते पत्रकार सम्मेलने स्वास्थ्यमन्त्री पौडेलः सीमितानां स्रोतसाम् साधनानां च मध्येऽपि मन्त्रालयेन उल्लेखनीया प्रगतिर्विहिता अस्तीति उदैरयत। स्वास्थ्यमन्त्री पौडेलः आधारभूतानां चिकित्सालयानां सञ्चालनस्य डेंगू संक्रमणस्य नियन्त्रणस्य एच पीभी नामकस्य टीकौषधस्य आदानाभियानस्य विपद व्यवस्थापनस्य आपत्कालिक पूर्वकार्यस्य कर्मचारिणां समायोजनस्य च विषयेषु त्रिषु एव स्तरेषु सहकार्यं विधाय समस्यानां समाधाने स्पष्टता आनीता स्थिति समस्पष्टयत्। जटिलानां मधुमेह हृदय रोग वृक्क प्रवृत्तिनां रोगाणां कृते लक्षद्वयस्य रूप्यकाणां सेवा सुरक्षण कोषस्य माध्यमेन प्रदानस्य व्यवस्था क्रियान्विता स्थिति च मन्त्री पौडेलः प्रावोचत्। कृषि पशुपक्षी विकास मन्त्री रामनाथ अधिकारी मन्त्रालयस्य दायित्व निर्वहणस्य एकवर्षावधौ कृषिक्षेत्रे निजीगतं संस्थागतं च सुधारं विधाय कृषकेभ्यः दातव्यानां सौविध्यानां सेवा प्रवाहाणां च विषयेषु क्रमिक सुधारः जायमानोऽस्तीति उक्तवान् अस्ति। ह्यः मन्त्रालये आयोजिते पत्रकार सम्मेलने एकवर्षावधौ सम्भूताः प्रमुखाः उपलब्धीः सार्वजनिक कुर्वन् मन्त्री अधिकारी देशस्य समग्रस्य कृषिक्षेत्र सुधारः कृषकाणां पक्षे महत्वपूर्णानि कार्याणि च सम्भूतानि सन्तीति प्रावोचत्। अस्मिन् अवधौ मन्त्रालयेन कृष्युत्पादनानां उत्पादकत्वस्य च वृद्धिम् आपणविस्तारं कृषकाणां जीवनस्तरे सुधारं च प्राथमिकतायां संस्थाप्य कार्यं विधीयमानम् अस्तीति उदैरयत्। तदवसरे एकवर्षावधौ मन्त्रालयेन विहितानाम् उपलब्धीनां वर्तमानार्थिक वर्षे विधातव्यानां कार्याणां च विषयं मन्त्रालयस्य प्रवक्ता हरिबहादुर केसी व्यज्ञापयत्। प्रतिनिधि सभान्तर्गताया महिला सामाजिक सम्बद्ध समिति ह्यस्तनोपवेशे राष्ट्रिय बालाधिकार परिषदा प्रकाशितं बाल बालिका सम्बद्धं गत विक्रमवर्षीयं राष्ट्रिय प्रतिवेदनम् आदृत्य विमृष्टमस्ति। उपवेशे प्रतिवेदनं प्रस्तुवन् परिषदः सूचनाधिकारी रामबहादुर चन्द नेपाले जायमानस्य बाल विवाहस्य सूचकांकेषु क्रमेण सुधारः जायमानः सन्नपि अस्य पूर्णतया निरोधे अधुनावधि काठिन्यानि सन्तीति अगदत्। पत्रकारिता क्षेत्रं स्वच्छं निष्पक्षं दायित्ववायि च विधातुं मीडिया काउन्सिल विधेयकेन केन्द्रितेन भाव्यमिति सांसदैः बलं दत्तमस्ति। प्रतिनिधिसभान्तर्गतायाः शिक्षा स्वास्थ्य सूचना प्रविधि समितेः ह्यस्तनोपवेशे मीडिया काउन्सिल विधेयकस्य संशोधनकर्तृभिः जनैः सह विहिते विमर्शने सांसदाः पत्रकारिता क्षेत्रं स्वतन्त्रं संस्थाप्य उत्तरदायिनः नियमनकारिणश्च सम्पादनस्य भूमिकायां विधेयकं केन्द्रीकरणीयमिति बलं दत्तवन्तः। उपवेशे सांसदः मीडिया काउन्सिल परिषदः अध्यक्षस्य नियुक्तिः विज्ञसहितायाः समितेः परामर्शनेन विधातव्या। स्थानीयस्तरे कार्यरतानां पत्रकाराणां क्षमतायाः विवृद्धेः विषयाय प्राथमिकता प्रदातव्या। पत्रकाराणां निश्चितयोग्यता निर्धारणीया चेति विषयेषु संशोधनस्य प्रस्तावं कृतवन्तः। राष्ट्रिय सभान्तर्गताया विधायन व्यवस्थापन समित्या जलस्रोतो विधेयकम् आधृत्य प्रकरणगतं विमर्शनम् अग्रे वर्धापितमस्ति। समिते ह्यस्तनोपवेशेन विधेयकस्य प्रस्तावानाम् आधृत्य विहितस्य प्रस्तावनाम् आधृत्य विहितस्य विमर्शनस्य क्रमे सांसदैः उत्थापितान् विषयान् मूल विधेयकं प्रतिनिधि सभया प्रेषितस्य प्रतिवेदनस्य विषयं च समाविश्य प्रस्तावनाया प्रस्तावं निर्मातुं विधि मन्त्रालयः निर्दिष्टो वर्तते। इति समाचारः।